Okay, yeah, so I have started the screen share. Please let me know if you are able to hear my voice and also able to see the screen. Yes, okay. Dhanyavada Mahodaya, Dhanyavada Mahodaya. Priyaram Bhagini, you cannot see the screen. Can you please see now, because others are able to see it. If you are viewing it on mobile, please try to swipe it. Asto. So, we'll get started with our prayer as we do in every session. So, we will start with the beginning prayer. Om Sahana Bhavatu Sahano Bhunaktu Sahaviryam Karavavahai Tejas Vinavadhitamastu Mavet Vishavahai. Om Shanti Shanti Shanti. Okay, so we started off with this last week, this particular slide. And to revise again, Vrukshaha. So today we will have Dr. Tangam. Dr. Tangam to revise the few sentences here. What is Vrukshaha? Vrukshaha is Akaranta Pumlinga, Vruksha Shabda. Similarly, we'll take over the other words also. So Dr. Tangam, Bhagini, are you there? Tangam Bhagini, not able to hear your voice. Okay. Oh, sorry. I'm sorry. I think I have to unmute you. Dr. Tangam Bhagini, please try now. You will be able to.
Namaskaram, Mahodaya.
Namaskaram, Bhagini.
Nothing is seen, sir, on the screen.
Right. Okay. Are you able to see it? Yeah, okay.
Yes, sir. Yes, sir. Yes, sir. Not now, sir.
Yes, Bhagini. So please start with the Shabda Parichaya. What is the word and what is its gender and what is it ending with? Is it a Pumlinga?
No, nothing. That is, yes. Okay, sir. Nothing is seen.
You're not able to see Vrukshaha?
Now I am seeing, sir. Thank you.
Okay.
Vrukshaha, Akarantaha Pumlinga Shabdaha, Shabdaha.
Samichinam Bhagini. Next Shabda.
Pustakam, Akarantaha Nabumsakalinga Shabdaha.
Samichinam. Agre.
Balika Akarantaha Strilinga Shabdaha.
Samichinam Bhagini. Agre.
Nadihi Ikarantaha Strilinga Shabdaha.
So Bhagini, this is just a Nadi. As of when we try to describe the word, currently it is Nadi. We will add the... Astu Bhagini. So, and we will get on with Atra Kutra. This slide, Bhagini. So, we have not seen Aham. Aham Kaha, we have not seen this. We'll come back to this later, but we'll start with this.
Karadibha. Kutra asti? Karadibha.
Ekanimsham, Bhagini. Bhagini, are you not able to see this girl and spoon? Is that slide not visible right now?
No, sir. Now it is seen. Okay, sir. Chamasaha atra asti. Vidyalaya. विद्यालयः अत्र अस्ति. मार्जारः अत्र अस्ति. स्यूतः अत्र अस्ति.
Okay, Bhagini. So these are our answers. So similarly, can you please add the question to this particular answer and also translate that into English? The answer should be in English also. Add the question in Sanskritam and the answer in the English.
Okay. Chamasah, kutra asti, where is the spoon? Am I correct, sir?
Samichinam, Bhagini.
Vidyalayah, kutra asti, where is the school?
Samichinam.
Marjarah, kutra asti, where is the cat?
Agreed.
Can I proceed, sir?
Syutah,
kutra asti, where is the bag?
Samichinam, Bhagini. Dhanyavadah.
Dhanyavadah, Mahodaya.
Samichinam, Bhagini. Bahu Samichinam. Agre, Manya, Bhagini, are you available? Manya, Bhagini. Mangai, Bhagini. Manya, Bhagini. Manya, Bhagini, are you in the call? Manya Bhagini, you are not responding. Rabindra Mahodaya, are you able to hear now? Okay, Manya Bhagini is not responding. Premila Bhagini, are you available?
Yes, sir. sir, I am...
So, please...
Kutra asti, kuchika, tatra asti.
Jangama, so what does this mean? Bhagini.
Kuchika, kutra asti means where is the key?
Samitinam.
Kuchika, tatra asti means the key is there.
Samitinam. So please use if you say.
Sir?
When you are saying means, try to use if you pay.
Yeah. Okay, sir. Jangama Duravani Kutra Asti. Where is the mobile?
Samichinam.
Jangama Duravani Tatra Asti. If you pay, the phone is there.
Samichinam. Agree.
Upanetram Kutra Asti. Where is the spectacles? Upanetram tatra asti iti yukte upanetram spectacles are there.
Samichinam Bhagini, samichinam. Dhanyavadaha. Agre Sivakumar Ganesan Mahodaya Bhagini, I'm sorry, this Bhavani Bhagini or...
Sir, available, sir.
Bhagini, would you like to... okay, Bhagini. So, would you like to take this up, Bhagini?
Yes, sir. I will.
Okay, Bhagini. So, please take the question. Say it with the question. Then translate into English. Then take the answer and translate into English.
New York Nagaram Anyatra Asti.
Bhagini, so please ask the question first.
Okay, New York Nagaram Kutra Asti. Where is New York Nagaram? New York Nagaram Anyatra Asti. New York Nagaram is somewhere.
Samichina. Agree, Bhagini.
And... griham anyatra asti. Griham kutra asti. Where is the house? गृहं
समीचीनम्
अन्यत्र हस्त्री अस्ति गृहं गृहम् इस् समवेर्
हौस्
सोरि हौस् इस् समवेर् सोरि हौस् इस् समवेर्
समीचीनम् अग्रे भगिनि
शुनका अन्यत्र शुनका कुत्र अस्ति वेर् इस् द डोग् शुनका अन्यत्र अस्ति डोग् डोग् इस् समवेर् सोरि शुनकः शुनकः अन्यत्र अस्ति डोग् इस् समवेर् नेक्स्ट् पर्वता अन्यत्र अस्ति पर्वतः पर्वत कुत्र अस्ति पर्वत अन्यत्र अस्ति वेर् इस् द मौण्टेन् पर्वतः अन्यत्र अस्ति मौण्टेन् इस् समवेर्
अग्रे भगिनि
वायुः सर्वत्र अस्ति वेर् इस् द एर् वायुः कुत्र अस्ति वेर् इस् द एर् एर् इस् एव्रिवेर् वायुः
सर्वत्र समीचीनं
वायुः आकाशः सर्वत्र अस्ति सोरि आकाशः कुत्र अस्ति वेर् इस् द स्कै आकाशः सर्वत्र अस्ति आकाशः सोरि द स्कै इस् एव्रिवेर्
समीचीनं भगिनि धन्यवादाः
थ्याङ्क् यू सर्
धन्यवादः भगिनि अग्रे सुचित्रा भगिनी आर् यु अवेलेबल् सो कैण्ड्लि वन् सेकेण्ड् लेट् मी म्यूट् एव्रिबडि अण्ड् देन् कम् टु सुचित्रा भगिनी सुचित्रा भगिनी आर् यु अवेलेबल्
हलो यस्
Bhagini,
can you hear me?
Yes, Bhagini.
Question, Prakash kutra asti? Answer, Prakash sarvatra asti. Where is the Bhagini, light?
Atra shabdaha asti prakashaha.
Prakashaha kutra asti? Prakashaha sarvatra asti. Prakashaha sarvatra asti. Asti. Question is where is light and answer is light is everywhere
samichana bani agree
mahika kutra asti asti
mahika
where is mahika means snow
samichana agree
it is snow
yes aam bagni aam
answer is mahika sarvatra asti that is snow is everywhere
astu bagni astu so agre vilka okay bagni dhanyavada bagni
dhanyavada
so last dhanyavada bagni astu samichinam last week we had one question what is sarvanama shabda right what are the various sarvanama shabda we have seen yesah sah etat tat yesha sa kim kah ka these are the shabda sarvanama shabda we have seen and the question was sarvanama means sarvanama somebody broke that down into two words sarvanama So here sarva and then we have nama. We know nama is already name, and sarva means all. So we are referring to this as sarva nama shabdah. Means what does it mean? We are referring to all objects for which we can refer by something is what is sarva nama. We are saying it, even though we do not know what is that object. Etat kim, right? Esha ka, esha kaha. So we can refer to objects or beings or some kind of things using these words. That is why we are referring to as sarva nama shabdah. They are definitely pronouns. We are addressing pronouns here. But what does it mean is, it is being addressed to everything. So, this is already there in Ashtadhyayi. So, the father of grammar, Sanskrit, is Panini. So, Panini Maharshi has written down certain rules. And based on certain rules, we are referring to these objects as Sarvanama. So, that which can be referred, or that all that can be referred by this is what is Sarvanama Shabdaha, right? All that can be referred by these words are called as Sarvanama Shabdaha. So we can refer to a boy using Eshaha Kaha. Similarly for a girl, Esha Ka. Similarly for a object, Etat Kim, right? So we are using Esha Ka, Eshaha Kaha, Etat Kim, Tat Kim, right? Saha Kaha, Sa Ka. So the addressing is happening with these kind of words, and that is why we are referring to it as Sarvanama Shabdaha. Somebody had asked this last week, how do we define or describe what is Sarvanama Shabdaha or Sarvanama Shabdaha, right? So this is what it means. So next, here when we are asking something, we used bhavan, bhavan or bhavatyah namakim, bhavatyah namakim, right? Bhavatah namakim, bhavatyah namakim. Our first class, bhavatah namakim, bhavatyah namakim. So, if I want to add a few more things, then the word is aham. The word is aham. Bhavan kaha. Aham Pitruvyaha, Aham Matulaha. So Pitruvyaha here refers to father's brother, Pitruvyaha. Aham means I am father's brother, I am Pitruvyaha, Aham Matulaha, mother's brother, Aham Matulaha. Bhavan kaha, Aham Pitruvyaha. So we go to certain gatherings or functions, right, or events, and we kind of meet new people, or we might see people who have grown in front of our eyes. We had seen sometime long back ago, and because of time these days, we are not able to meet them regularly. And when they were small, we had visited them or seen them. But after few years or after a decade, we meet them in a function or in an event or a gathering, and there we see, who are they? And we ask, who are you? Bhavan kaha. So, Bhavan kaha. So, first thing, if you want to ask the name, you will ask, Bhavatah nama kim. The answer would be, Mama nama Jayantah. Bhavan kaha. I have not seen you. So, first thing we'll ask, Bhavan kaha. Aham Pitruvyaha. Aham, your father's brother. That is what we will try to address the relationship. Aham Matulaha, mother's brother is Matulaha, Aham Matulaha. Bhavan kaha, Aham Janakaha, Janakaha ityukte father, Janakaha ityukte father. Ekanimsham.
You're muted.
Bhavan kaha, Aham Janakaha, Janakaha ityukte father. Aham putraha, aham putraha, putraha ityukte son, aham putraha. Bhavan kaha, aham pautraha, pautraha ityukte son's son or grandson, aham pautraha. Aham dauhitraha, अहं दौहित्रः अहं दौहित्रः दौहित्रः इत्युक्ते ऐ एम् डाटर्स् सन् इट् इस् आल्सो स्टिल् ग्राण्ड् सन् इङ्ग्लिश् बट् टु डिफ्रेन्शियेट् हियर् पौत्रः इस् सन्स् सन् दौहित्रः इस् डाटर्स् सन् ओके देट् इस् वै वि आर् यूसिङ्ग् टु डिफ्रेण्ट् वर्ड्स् हियर् भवान् कः अहम् अनुजः अनुजः इत्युक्ते यङ्गर् ब्रदर् भवान् कः अहम् अनुजः अहम् अनुजः ऐ आम् यङ्गर् ब्रदर् अहम् अग्रजः अहम् अग्रजः अग्रजः इत्युक्ते एल्डर् ब्रदर् अहम् अग्रजः एल्डर् ब्रदर् अहम् आवुतः आवुतः इत्युक्ते सिस्टर्स् हस्बेण्ड् भवान् कः अहम् आवुतः आवुत्तः इस् सिस्टर्स् हस्बेण्ड् अहं भागिनेयः ऐ आम् सिस्टर्स् सन् भागिनेयः भागिनेयः इस् सिस्टर्स् सन् इस् भागिनेयः अहं श्वशुरः अहं भवान् कः अहं श्वशुरः श्वशुरः इत्युक्ते फादर् इन् ला अहं जामाता अहं जामाता भवान् कः अहं जामाता जामाता इत्युक्ते सन् इन् ला जामाता इत्युक्ते सन् इन् ला भवान् कः अहं पतिः अहं पतिः पतिः इत्युक्ते हस्बेण्ड् भवान् कः अहं देवरः देवर इत्युक्ते हस्बेण्ड्स् ब्रदर् इस् देवरः सो दीस् आर् मास्क्युलैन् जेण्डर् वर्ड्स् वाट् एवर् वी हेव् सीन् आर् सो फार् इस् मास्क्युलैन् जेण्डर् वर्ड्स् सो पतिः देवरः श्वशुरः जामाता आवुत्तः भागिनेयः अनुजः अग्रजः पौत्रः धौहित्रिः दौहित्रः जनकः पुत्रः पितृव्यः मातुलः सो आल् आर् दीस् आर् अकारान्तपुल्लिङ्गशब्दः रैट् दे आर् एण्डिङ्ग् वित् अह अकारान्तपुंलिङ्गशब्दः एक्सेप्ट् फार् जामाता जामाता इस् नाट् अकारान्तपुंलिङ्गशब्दः विल् कम् टु दीस् कैण्ड् आफ् वर्ड्स् लेटर् ओके सो दीस् आर् आल् पुंलिङ्गशब्दशब्दः आल् दट् वि हव् सीन् एक्सेप्ट् फार् जामाता अकारान्तपुंलिङ्गशब्दः भवान् कः अहं पितृव्यः भवान् कः अहं मातुलः भवान् कः अहं जनकः भवान् कः अहं पुत्रः भवान् कः अहं पौत्रः भवान् कः अहं दौहित्रः भवान् कः अहम् अनुजः भवान् कः अहम् अग्रजः भवान् कः अहम् आवुत्तः भवान् कः अहं भागिनेयः भवान् कः अहं श्वशुरः भवान् कः अहं जामाता भवान् कः अहं पतिः भवान् कः अहं देवरः दीस् आर् द मास्क्युलैन् जेण्डर् क्वश्चन्स् एण्ड् रेस्पेक्टिव् आन्सर्स् फार् देट् सो भवान् कः एण्ड् वी हाव् सो मेनि आन्सर्स् द रोल् दट् एन् इण्डिविजुवल् इस् पर्फार्मिङ्ग् सो अग्रे वि हाव् सिमिलर्लि फेमिनैन् जेण्डर् वर्ड्स् भवती का भवती का सो हु आर् यू अहं पितृव्या अहं पितृव्या पितृव्या इत्युक्ते फादर्स् सिस्टर् अहं पितृव्या ऐ एम् युवर् फादर्स् सिस्टर् अहं पितृव्या मदर्स् ब्रदर्स् वैफ् अहं मातुला ओके अहं मातुला अहं माता मदर् अहं माता भवती का अहं माता माता इत्युक्ते मदर् भवती का अहं पुत्री पुत्री इत्युक्ते डाटर् भवती का अहं पुत्री पुत्री इत्युक्ते डाटर् भवती का अहं पौत्री अहं पौत्री वि हाव् सीन् पौत्रः पौत्री मीन्स् सन्स् डाटर् अहं दौहित्री दौहित्री दौहित्रः इस् डाटर् सन् दौहित्री इस् डाटर्स् डाटर् अहं भवती का अहम् अनुजा सो अहम् अनुजा इत्युक्ते ऐ आम् यङ्गर् सिस्टर् अनुजः इस् यङ्गर् ब्रदर् अनुजा इस् यङ्गर् सिस्टर् अहम् अग्रजा इत्युक्ते ऐ आम् एल्डर् सिस्टर् अग्रजः इस् एल्डर् ब्रदर् अग्रजा इस् एल्डर् सिस्टर् अहं भातृजाया अहं भातृजाया अहं भातृजाया इत्युक्ते ब्रदर्स् वैफ् अहं ब्रदर्स् वैफ् भातृजाया अहं स्वस्त्रीया अहं स्वस्त्रीया स्वस्त्रीया इत्युक्ते सिस्टर्स् डाटर् अहं सिस्टर्स् डाटर् दट् इस् स्वस्त्रीया भवती का अहं श्वश्रुः अहं श्वश्रुः श्वश्रुः इस् मदर् इन् ला अहं श्वश्रुः अहम् अयं मदर् इन् ला भवती का अहं श्वश्रुः मदर् इन् ला अहं स्नुषा अहं भवती का अहं स्नुष्णा स्नुषा अहं स्नुषा स्नुषा इत्युक्ते डाटर् इन् ला अस्तु भवती का अहं पत्नी अहं पत्नी अयं वैफ् भवती का अहं पत्नी अयं वैफ् अहं ननान्दा अहं ननान्दा ननान्दा इत्युक्ते हस्बेण्ड् सिस्टर् ननान्दा इत्युक्ते हस्बेण्ड् सिस्टर् समीचीनं भवती का इस् फार् फेमिनैन् भवान् कः इस् फार् मास्क्युलैन् एण्ड् द आन्सर् इस् अहम् एण्ड् देन् द रोल् देट् यु आर् प्लेयिङ्ग् अहं पौत्रः अहं पिता अहं माता अहं श्वश्रुः अहं स्नुषा अहं भातृजाया अहं स्वस्त्रीया अहम् अनुजा अहम् अग्रजा अहं पौत्री अहं दौहित्री अहं माता अहं पुत्री अहं पितृव्या अहं मातुला अहं पतिः अहं देवरः अहं देवरः अहं श्वश्रुः अहं श्वश्रुः अहं श्वश्रुरः अहं श्वश्रुरः श्वश्रुरः इस् फादर् इन् ला श्वश्रुः इस् मदर् इन् ला अहं जामाता अयं सन् इन् ला अहम् आवुत्तः अहं सिस्टर्स् हस्बेण्ड् अहं भागिनेयः अहम् अयं सिस्टर्स् सन् भागिनेयः अहम् अनुजः अयं यङ्गर् ब्रदर् अहम् अग्रजः अयम् एल्डर् ब्रदर् अहं पौत्रः पौत्रः इस् ग्रेण्ड्सन् सन् सन् अहं दौहित्रः इस् स्टिल् ग्रेण्ड्सन् इट् इस् डाटर् सन् अहं जनकः इस् फादर् अहं पुत्रः इस् सन् अहं पितृव्यः अहं पितृव्यः फादर्स् ब्रदर् अहं मातुलः मदर्स् ब्रदर् अस्तु सो दीस् आर् द वर्ड्स् देट् वी हाव् लर्न्ड् वित् रेस्पेक्ट् टु रिलेशन्शिप्स् सो अहं भवान् कः अहं पितृव्यः भवान् कः अहं मातुलः भवान् कः अहं जनकः अस्तु सो वि विल् प्राक्टीस् दिस् सो नेक्स्ट् इस् निष्ठाभगिनी निष्ठाभगिनी आर् यु अवेलेबल् निष्ठा भगिनी निष्ठा भगिनी आर् यु अवेलेबल् निष्ठा भगिनी
कहाँ गई आंटी अरे वसुधा बोला
निष्ठा भगिनी अस्ति वा निष्ठा भगिनी ओके निष्ठा भगिनी ऐ एम म्यूटिंग युअर सेल्फ
मैडम
दोनों मत खाओ एक कल खा लेना
Okay, Nishtha Bhagni is not responding. Anita Bhagni, are you available?
Yes, yes,
sir. Bhagni, can you please ask the question and then answer these sentences?
Um,
भवती का अहं पितृव्या अस्तु प्लीज आस्क द क्वेश्चन भवती का अहं पितृव्या भवती का अहं मातुला
भवती का अहं पितृव्या
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 आं भगिनि
भवती का अहं मातुला
समीचीनम् अग्रे भगिनी
भवती का भवती माता
अहं माता
अहं माता भवती का अहं पुत्रा पुत्री सोरि
अहं पुत्री समीचीनं भगिनि धन्यवादः मुरुगप्पन् महोदय आर् यु अवेलेबल्
आं महोदय नमस्कारः
नमस्कार महोदय सो केन् यु प्लीस् आस्क् दि क्वश्चन् अण्ड् आन्सर् फार् दीस् वन्
भवान् कः अहं पितृव्यः ऐ एम् फादर्स् ब्रदर् भवान् कः अहं मातुलः ऐ एम् मदर्स् ब्रदर्
समीचीनम् अग्रे महोदय
भवान् कः अहं जनकः ऐ एम् अ फादर् भवान् कः अहं पुत्रः ऐ एम् हिस् सन्
समीचीनम् अग्रे
भवान् कः अहं पौत्रः ऐ एम् सन्स् सन् ग्राण्ड् सन् अहं दौहित्रः ऐ एम् डाटर्स् सन्
समीचीनं भगिनि महोदय धन्यवादः
धन्यवादः महोदय
अग्रे मञ्जुश्री भगिनी आर् यु अवेलेबल् मञ्जुश्री भगिनी
यस् सर्
अस्तु भगिनि सो केन् यु प्लीस् आस्क् दि क्वश्चन् अण्ड् आन्सर् आन्सर् इट्
यस् भवती का अहं माता ऐ एम् अ मदर् भवती का अहं पुत्री ऐ एम् अ डाटर्
अग्रे
भवती का अहं पौत्री ऐ एम् सन्स् डाटर् भवती का अहं दौहित्री ऐ एम् डाटर्स् डाटर् ग्राण्ड् डाटर्
समीचीनम् अग्रे
भवती का अहम् अनुजा ऐ एम् यङ्गर् सिस्टर् भवती का अहम् अग्रजा ऐ एम् एल्डर् सिस्टर्
समीचीनम् अग्रे अग्रे
भवती का अहं भातृजाया ऐ एम् ब्रदर्स् वैफ् भवती का अहं स्वस्त्रिया ऐ एम् सिस्टर्स् डाटर्
बहु समीचीनं भगिनि धन्यवादः
धन्यवादः
अग्रे राघवन् महोदय आर् यु अवेलेबल्
आं महोदय
महोदय केन् यु प्लीस् आस्क् द क्वश्चन् अण्ड् आन्सर् फार् दीस् वन्स्
ओके सो भवान् कः अहं जनकः I am father. Bhavan kaha, who are you? I aham putraha. Putraha means son.
Samichinam. Agre?
Bhavan kaha, aham pautraha. Pautraha, son's son. Bhavan kaha, aham dauhitraha. Means daughter's son.
Samichinam. Mode agre?
Bhavan kaha, अहम् अनुजः अनुजः इत्युक्ते यङ्गर् ब्रदर् भवान् कः अहम् अग्रजः अग्रजः इत्युक्ते एल्डर् ब्रदर्
समीचीनम् अग्रे महोदय
भवान् कः अहम् आहुतः आहुतः इत्युक्ते सिस्टर्स् हस्बेण्ड् भवान् कः अहं भागिनेयः भागिनेयः इत्युक्ते सिस्टर्स् सन्
बहु समीचीनं महोदय धन्यवादः
धन्यवादः
अग्रे स्वर्णलक्ष्मी भगिनी आर् यु अवेलेबल्
महोदय
आं भगिनि सो केन् यु प्लीस् डू दिस् वन्स्
भवती का अहं पितृव्या ऐ एम् फादर् सिस्टर् भवती का अहं मातुला ऐ एम् मदर्स् ब्रदर्स् वैफ्
समीचीनम् अग्रे भगिनि
भवती का अहं माता ऐ एम् मदर् भवती का अहं पुत्री ऐ एम् द डाटर्
समीचीनम् अग्रे
भवती का अहं पौत्री ऐ एम् सन्स् डाटर् भवती का अहं दौहित्री ऐ एम् डाटर्स् डाटर्
समीचीनम् अग्रे भगिनि
भवती का अहम् अनुजा ऐ एम् यङ्गर् सिस्टर् भवती का अहम् अग्रजा ऐ एम् द एल्डर् सिस्टर्
समीचीनं भगिनि बहु समीचीनं धन्यवादः
धन्यवादः महोदय
अग्रे रवीन्द्रमहोदय आर् यु अवेलेबल् रवीन्द्रमहोदय रवीन्द्रमहोदय आर् यु देर् आर् यु लेफ्ट् रवीन्द्रमहोदय इस् आन् म्यूट् लुक्स् लैक् ओके मुरुगन् शर्मा महोदय आर् यु अवेलेबल्
यस्
महोदय सो प्लीस् रीड् दिस् वन् आस्क् द क्वश्चन् and answer it and answer the translate the answer as well
am mahadya bhavan kah agam pitruvya ityukte father brother bhavan kah
samichinam bahu samichinam
agam matulaga ityukte mother brother
samichinam agre
bhavan kah agam janakah इत्युक्ते फादर् भवान् कः अहं पुत्रः इत्युक्ते सन् भवान् कः अहं पौत्रः इत्युक्ते सन् सन् भवान् कः अहं दौहित्रः इत्युक्ते डाटर् सन्
समीचीनं महोदय अग्रे
भवान् कः अहम् अनुजः इत्युक्ते यङ्गर् ब्रदर् भवान् कः अहम् अग्रजः इत्युक्ते एल्डर् ब्रदर्
समीचीनं महोदय धन्यवादः महोदय
धन्यवादः महोदय धन्यवादः
अग्रे सियाराम भगिनि आर् यु अवेलेबल् सियाराम भगिनि
Can you hear me?
Yes, Agni.
Bhavati ka aham anuja. Bhavati ka aham agraja.
Okay. Anuja ityukte?
Anuja ityukte younger sister. Agraja ityukte elder sister.
Samichinam. Agre Bhagni?
भवती का अहं भ्रातृजया भ्रातृजया इत्युक्ते ब्रदर्स् वैफ् भवती का अहं स्वश्रिया स्वश्रिया इत्युक्ते सिस्टर्स् डाटर्
समीचीनम् अग्रे
भवती का अहं श्वश्रूः श्वश्रूः इत्युक्ते मदर् इन् लॉ भवती का अहं स्नुषा स्नुषा इत्युक्ते डाटर् इन् लॉ
समीचीनम् अग्रे भगिनि
भवती का अहं पत्नी पत्नी इत्युक्ते वैफ् भवती का अहं ननान्दा इत्युक्ते हस्बेण्ड् सिस्टर्
समीचीनं भगिनि धन्यवादः अग्रे शिवकुमार महोदय आर् यु अवेलेबल् महोदय शुभं महोदय अस्ति वा? शुभं महोदय नास्ति अत्र. अस्तु, शिवकुमार महोदय नास्ति चेत् अग्रे उषा भगिनी, आर् यु अवैलेबल्? उषा भगिनी, ओके भगिनि, सो केन् यु प्लीस् टेक् अप् दीस् वन्?
अहं पितृव्या, दट् इस् फादर्स् सिस्टर्. भवती का? अहं मातुला, इत्युक्ते मदर्स् ब्रदर्स् वैफ्.
भवती
का? भवती का? अहं माता, इत्युक्ते मदर्. भवती का? अहं पुत्री, डाटर्.
समीचीनम्. अग्रे भगिनि.
भवती का? अहं पौत्री, इत्युक्ते सन्स् डाटर्. भवती का? अहं दौतित्री, डाटर्स् डाटर्.
अग्रे.
भवती का? अहं अनुजा, इत्युक्ते यङ्गर् सिस्टर्. भवती का? अहम् अग्रजा, इत्युक्ते एल्डर् सिस्टर्.
समीचीनम्. अग्रे.
भवती का? अहं भातृजाया, ब्रदर्स् वैफ्. भवती का? स्वस्त्रीया, इत्युक्ते सिस्टर्स् डाटर्.
अग्रे.
भवती का? अहं श्वश्रुः, इत्युक्ते मदर् इन् ला. भवती का? अहं श्रुषा, इत्युक्ते डाटर् इन् ला. भवती का? अहं पत्नी, इत्युक्ते वैफ्. भवती का? अहं ननान्दा, इत्युक्ते हस्बेण्ड् सिस्टर्.
समीचीनम् अग्रे, बहु समीचीनं, धन्यवादः.
धन्यवादः.
सो वी हव् सीन् वाट् इस् अहं हियर्, रैट्? So how are we going to use aham with respect to relationship? Now we will see how we are going to answer these. So Sarada Ramakrishnan Bhagini, on the left side we have here sentences. Can you please read them out?
Yes sir. Aham sanya, I am Shandya.
Samichinam.
Aham Mahila, I am a woman. Aham Chatura.
Chatura.
Chatura, I am intelligent. Aham Bharatiya, I am
Bharatiya.
Bharatiya, I am an Indian. Aham Shaktihi.
Sakhi. Sakhi.
Shaki, I am a friend. Aham Vaidya, I am a doctor.
Samichinam bhagini, dhanyavadaha. Agre Balasubramanyam Mahodaya, are you available?
Yes sir, available.
Mahodaya, can you please read the right hand side sentences?
Aham Govindaha, I am Govinda. Aham Purushaha, I am a man. Aham kriyashakilaha, I am active. Kriyashilaha, I am active. Aham videshyalaha, I am foreigner. Aham videshyaha, I am foreigner. Aham Mitram, I am your friend. Aham Pachaka, I am your cook.
Aham Pachaka, Mahodaya, Pachaka.
Aham Pachaka, I am your cook.
समीचीनं महोदय, बहु समीचीनं, धन्यवादः.
धन्यवादः.
सो नेक्स्ट् इन्द्रा भगिनी, आर् यु अवेलेबल्?
यस् यस् महोदय.
अस्तु भगिनी, केन् यु प्लीस् रीड् द लेफ्ट् हेण्ड् सैड् सेण्टेन्सेस्?
भवती राधा, भवती बालिका, भवती बुद्धि, भवती राधा, यु आर् राधा, भवती बालिका, यु आर् अ गर्ल्, भवती बुद्धिमती, यु आर् वैस्, भवती छात्रा, यु आर् अ स्टूडेण्ट्.
समीचीनं भगिनि, धन्यवादः. अग्रे मुरुगप्पन् महोदय, आर् यु अवेलेबल्?
आं महोदय.
महोदय, केन् यु प्लीस् रीड् अ रैट् हेण्ड् सैड् सेण्टेन्स्?
अस्तु. भवान् शिवः, यु आर् शिव. भवान् बालः, यु आर् अ बाय्. भवान् प्राज्ञः, यु आर् क्लवर्. भवान् छात्रः, यु आर् अ स्टूडेण्ट्.
धन्यवादः. So these are some of the things, our sentences that we are able to form here. So what did we form here? We first formed the name, then we formed whether, what kind of gender it is, then we described the gender, right? How well or how good the gender is. Aham Chatura, I am Kriyashilaha. Then the nationality, Aham Bharatiya, Aham Videshiyaha. Then similarly, we have described whether if it is a female, I am a friend, aham sakhi. I am a friend in masculine is aham mitram. Then the profession of it, aham vaidya. Vaidya ityukte doctor. Aham pachakah ityukte cook, right? These are the kind of variations in sentences that we are using with aham. First, aham name, aham gender, aham characteristic, aham nationality, aham friend in feminine and masculine, and aham profession name. These are the things that we have learned here. So we will also try to see what are the ways in which we will address somebody and also see the various professions here. So Pramila Bhagni, are you available? Pramila Bhagni?
Yes, sir.
Okay, Pramila Bhagni, can you please take up this particular names here, and with respect to the figure, what it means?
Aham Shishuhu. Aham Balakha.
Astu Bhagni, and also the describe the figure. Shishuhu, if you say.
Oh, yeah. Aham Shishuhu. Shishuhu is, if you say boy. अहं बालकः, बालकः इति शिशु मीन्स्
बेबी बाय्.
अहं बालकः, बालकः इत्युक्ते बाय्. अहं बालिकः, बालिका, बालिका इत्युक्ते गर्ल्. अहं पुरुषः, पुरुषः इत्युक्ते जेण्डर्. अहं स्त्री, स्त्री इति उक्ते वुमेन् आर् लेडि. अहं वधुः, वधुः मीन्स् वधुः इत्युक्ते ब्रैड्.
यस्, समीचीनं भगिनि, समीचीनम्. अग्रे
हियर् केन् वि डिफ्रेन्शियेट् बिट्वीन् द मेल् आर् फिमेल्? वधुः मीन्स् इट्स्
bright bagni. You look at the arrow, they are also showing the arrow here.
Oh, in the yeah.
Okay.
Aham varaha, varaha means bridegroom.
Samichinam. Agre bagni.
Aham vruddha, vruddha iti itte old man.
समीचीनम् अग्रे
अहं वृद्धा वृद्धा इत्युक्ते ओल्ड् वुमेन् अहं वृद्धः अन्धः इत्युक्ते ब्लैण्ड् मेन्
समीचीनम्
अहम् अन्धा अन्धा इत्युक्ते ब्लैण्ड् वुमेन्
समीचीनम्
अहं कुञ्जा कुञ्जः कुञ्जः इत्युक्ते
हम्प्ड् बेक्
डिसेबल्ड्
डिसेबल्ड् आर् हम्प्ड् बेक् समीचीनम् अग्रे तङ्गं भगिनि धन्यवादः भगिनि भगिनि केन् यु प्लीस् कम्प्लीट् दिस् वन् सिमिलर्लि
भवति कृष्ण अहं कुञ्जा अहं कुञ्जा
कुब्जा वा
कुब्जा
अस्तु भगिनि
कुब्जा अहं सर् अहम् आर् भवान् आर् भवती ऐसे
हियर् इट् वुड् बि भवती का भवती कुब्जा एण्ड् इफ् यु वाण्ट् द आन्सर् भवती का अहं कुब्जा
ओ ओ ओके सर् भवती भवान् कः अहं खञ्जः इत्युक्ते हविङ्ग् वन् लेग् ओन्लि वन् लेग्
समीचीनं भगिनि
भवती का अहं खञ्जा
समीचीनं
खञ्जा वन् लेग् फीमेल् भवती का अहं विद्यार्थिनी ऐ एम् अ स्टूडेण्ट् फीमेल् स्टूडेण्ट्
समीचीनम्
अण्ड् भवती का अहं अध्यापिका अध्यापिका ऐ एम् अ टीचर्
अध्यापिका
फीमेल् टीचर् ऐ एम् अ And bhavan kah aham vaidyah I am a doctor
samitinam agre bhagne
bhavan kah aham danta vaidyah I am a dentist
samitinam bahu samitinam agre
भवती का अहं रात्री नर्स् ऐ एम् अ नर्स्
समीचीनम् अग्रे
भवती का अहं रोही पर्सन् वित् प्राब्लम् आर्
अहं पेशेण्ट् भगिनि
भवती का भवती गर्भिणी प्रेग्नेण्ट् वुमेन्
अहं गर्भिणी समीचीनं भगिनि गर्भिणी इत्युक्ते प्रेग्नेण्ट् लेडि समीचीनं भगिनि धन्यवादः
धन्यवादः सर्
अस्तु भगिनि प्रेमिला भगिनि ऐ मिस् द क्वशन् केन् यु प्लीस् रिपीट् इट् No, we'll do it again, Bhagini. I'll come back to you again. So practice this and then we'll come back to you. Okay, Bhagini? Okay. Okay, Bhagini. And then next, Triveni, Bhagini, are you available?
Yes.
Astu Bhagini. So can you please ask the question and answer the question and what it means?
Bhavan kaha. Bhavan kaha. Aham pradivakaha.
Pradivakaha. Nyayavadi.
Bhavati ka ka. अहं न्यायवादी
इत्युक्ते भगिनि
इत्युक्ते लायर्
समीचीनम् अग्रे
भवान् कः भवान् कः अहं न्यायाधीशः
समीचीनम्
इत्युक्ते जज्
समीचीनम् अग्रे
भवती का अहं विज्ञानी भवान् कः अहं विज्ञानी
इत्युक्ते
विज्ञानी सैण्टिस्ट् इत्युक्ते
समीचीनम् अग्रे
भवान् कः अहं चालकः इत्युक्ते ड्रैवर्
समीचीनम्
भवान् कः अहं वैमानिकः इत्युक्ते पैलट्
समीचीनं बहु समीचीनम् अग्रे
भवान् कः अहं गगनयात्रिकः इत्युक्ते आस्ट्रोनाट्
समीचीनम् अग्रे बहु समीचीनम् अग्रे
भवान् कः अहं पत्रवाह इत्युक्ते पोस्ट्मेन् भवान् कः अहं क्रीडालुः स्पोर्ट्स् इत्युक्ते स्पोर्ट्स्मेन्
समीचीनम् अग्रे
भवती का अहं क्रीडालुः इत्युक्ते स्पोर्ट्स् वुमेन्
समीचीनं भगिनि अग्रे
भवान् कः अहं भटः इत्युक्ते सोल्जर्
अत्र पोलिस् मेन् अस्ति आरक्षकः भटः अत्र पोलिस् मेन् अस्ति
भगिनि भवान् कः अहं चोरः इत्युक्ते थीफ् भवान् कः अहं बन्दी इत्युक्ते प्रिज़नर्
यस् करेक्ट् अस्तु समीचीनं भगिनि बहु समीचीनं धन्यवादः
महोदय वन् क्लारिफिकेशन् महोदय
आं भगिनि
क्रीडालु पुल्लिङ्ग् एण्ड् स्त्रीलिङ्ग् इट् इस् द सेम् इस् इट्
अस्तु भगिनि अत्र क्रीडालुः पुल्लिङ्ग स्त्रीलिङ्गशब्दः एकत्र अस्ति अत्र अत्र भेदः नास्ति यस् देर् इस् नो डिफ्रेन्स् हियर् एस् फार् क्रीडालु आं भगिनि ओके सो अग्रे अग्रे मन्या भगिनी अर्युदे मन्या भगिनी मन्या भगिनी अस्ति वा अस्तु भगिनि ओके सो okay, you can go on mute. Chinta mastu. Okay. Okay, mute you Bhagini for a minute. Mastu, Akre. Suchitra Bhagini, are you available?
Hello.
Aam Bhagini.
Yes. Bhavan kaha, Bhavan sainika. Sainika means soldier.
Aham sainika.
Aham sainika. Bhavan kaha, aham rakshaka. Rakshaka, watchman.
Astu, samichinam agre.
Bhavan kaha, aham gayaka. Bhavan kaha, I am aham gayaka, singer.
Samichinam.
Bhavati ka aham gayika, singer, lady singer. Bhavan kaha aham raja, king. Bhavati ka aham ragya, queen.
Rani. Ragni. Ragni.
Ragni.
Ragni.
Ragni.
Ragni, Bhagni. Not Ragni. Ragni.
Ragni. Ragni. Bhavam kaha aham krishika. Bhavam. Bhavan kaha.
Bhavan.
Bhavan. Bhavan kaha aham krishika. Farmer.
कृषिकः
फार्मर् भवान् कः अहं वाणिक् बिज़नेस्मेन्
ट्रेडर् समीचीनं बिज़नेस्मेन् ट्रेडर् वणिकः
वणिकः भवान् कः अहं वैणः वीवर्
Weaver, but here it is who prepares the basket.
Okay.
Vaina.
Okay. Bhavati kaha aham mala. Bhavati kaha aham mala ka. Aham mala kari, a woman who sell
garland, flower garland.
Make mala, garland or flower.
Yes.
Bhavan kaha, aham.
Bhavan bhani, bhavan.
Bhavan kaha, aham tattu vaya, weaver.
Samitinam, tantu vaya, tantu vaya.
Tantu vaya, weaver. भवान् कः
भवान् भगिनी
भवान् कः सॉरी अहं सोचिका टेलर सो
अर्थ समीचीनं सौचिकः सौ
सोचिका टेलर
सौचिकः सौचिकः
सोचिकः टेलर
समीचीनं भगिनी So, Bhagini, one thing I am noticing with respect to Suchitra Bhagini here is, right,
yes.
you are reading them as we are reading other alphabets, but in Sanskritam, we use pronunciation a lot, or phonetics a lot, with stressing of the words also. So, it is Sainika, so you are using Sainika, yes. It is Kaha, really Rakshaka, Rakshakaha, Gayaka, Gayakaha, for feminine gender words, you are doing well. Gayika, Raja, Ragni, all these are Malakari. So you are pronouncing as it is. But when it comes to the anus, the Visargaha, we should mention it also, or we have to spell it out. Okay,
Bhagini? Okay. Okay, Dhanyavad.
Aam. धन्यवादः
एक्स्क्यूस् मी सर् एक्स्क्यूस् मी फार् राजा वि शुड् आस्क् भवती का
Okay, good question, Bhagini. Here Raja is actually, we'll discuss this, but here it is Pumlinga Shabda only, so it is Bhavati ka, Bhavan Kaha, it will be Aham Raja.
Similarly, Mahodaya, Vijnani, Vijnani also it is same like Raja.
Samichinam Moda, correct. So we are at a very beginning stage. Here, a lot of the words are certain words, not all of them, but certain words are exceptions. In the sense that we have to identify the root word and get into the nuances of the grammar for Sanskrit to identify whether it is a Pumlinga or Strilinga. But majority of the cases, we can say if it is Aha, it is Pumlinga Shabdha. It is Aha. So generally it is Strilinga Shabda. Exception here is Raja. As we go forward, we'll also see that.
Dhanyavada, Mahodaya.
Good point, Mahodaya, Bhagini. Thank you so much. So we'll focus on these things as we go forward.
Mahodaya, one small doubt. Then what about if it is a female scientist, how do you ask the question? Bhavatika or Bhavankaha?
Bhavatika. Bhavatika only, Bhagini, because engineer, tantrajnaha, all these words are defined like this. They are not, because engineer, we do not really, or I have not come across a word that differentiates between a feminine gender and a masculine gender, but I'll anyway check that out. For these words, I have not found out so far in dictionaries, but I'll generally check these and I'll come back to you. But it is tantrajnaha or vijnani. So Bhavan Kaha, Bhavati Ka, these are the ways we'll address.
Okay. They may be treated as common things so that we can use it depending on the context.
Samichinam Bhagini, Astu. That is how it is.
Like Kridaluhu.
Yes, Kridaluhu, as we see here, Kridaluhu was both used for addressing the sportsman in the male gender and also in the feminine gender. So that is how the words are, where they really do not differentiate between the male gender and the feminine gender. Samijinam Bhagini. And so we'll see this as we go forward. We'll see a lot of these. We will try to address these also. Okay. Astu Bhagini. So Agre. It was Chitra Bhagini, then we have Anita Bhagini, are you available? Anita Bhagini? Okay, Anita Bhagini, you are having some issues. Okay, but we are not able to hear you, Bhagini, Anita Bhagini. Okay. Okay, we are not able to hear you. So we'll go ahead. Anita Bhagini is not there. Murugappan Mahodaya?
Mahodaya.
Mahodaya, can you
please reduce the size of the screen, please? This first line, I am not able to see the word fully.
Okay, okay.
Yeah, now it is okay. Bhavan, Bhavan Kaha. अहं रजकः भवान् कः अहं शिल्पी भवान् कः अहं लेपकारः यस् महोदय
रजकः इत्युक्ते
रजकः इत्युक्ते वाशर्मेन्
समीचीनम् अग्रे
भवान् कः अहं शिल्पी शिल्पी इत्युक्ते स्कल्प्टर् भवान् कः अहं लेपकारः लेपकारः इत्युक्ते मेसन् भवान् कः अहं तक्षकः तक्षकः इत्युक्ते कार्पेण्टर् भवान् भवान् कः अहं चित्रकारः चित्रकारः इत्युक्ते पेण्टर् भवान् कः अहं स्वर्णकारः स्वर्णकारः इत्युक्ते गोल्ड् स्मित् भवान् कः भवान् लोहकारः लोहकारः इत्युक्ते ब्लाक् स्मित् भवान् कः भवान् कुलालः कुलालः इत्युक्ते पाटर् भवान् कः भवान् धीवरः धीवरः इत्युक्ते फिशर्मेन् भवान् कः अहं घातुकः घातुकः इत्युक्ते बुक्षर् भवान् कः भवान् हस्तिपकः हस्तिपकः इत्युक्ते वाट् यु काल् हिम् एलिफेण्ट् कीपर् भवान् कः अहम् अहिदुण्डिकः अहिदुण्डिकः इत्युक्ते अहिदुण्डिकः अहिदुण्डिकः इत्युक्ते स्नेक् चामर्
समीचीनं भवन महोदय समीचीनं बहु समीचीनं सो
धन्यवादः
धन्यवादः
So,
no, no, but yeah, everything is fine. Even for the elephant keeper, there is a word, the term, that as you said.
Mahout.
Mahout, M-A-H-O-U-T, Mahout.
Yes, Mahout.
Mahout. So, Hastipakaha is Mahout. Ahitu Nindikaha is the snake shaman. Bahu samichinam mahodaya, dhanyavadaha.
Dhanyavadaha mahodaya.
अस्तु सो अग्रे अग्रे स्वर्णलक्ष्मी भगिनी आर् यु अवेलेबल् स्वर्णलक्ष्मी भगिनी आर् यु अवेलेबल्
यस् यस् ऐ एम् अवेलेबल् महोदय
आं भगिनि
भवान् कः भवान् व्याधः इट् इस् एरो शूटर् एरो शूटर् हण्टर् यस् हण्टर्
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 व्याधः
भवान् कः भवान्
भारवाहः
इस् सेल्लिङ्ग् द बुक्स्
No, Bhagini. Coolie.
Porter. No, Porter.
Not
Porter.
Books, no. Yes, Porter. Yes, sorry, sorry. Bharavaka. Yes, Porter.
Yes, Bhagini.
Bhavan kaha?
Udhyan palakaha.
Udhyan palakaha.
Palakaha.
Udhyan palakaha.
Udhyan palakaha.
Gardener.
So, yes, gardener. भवान् कः भवान् भवान् कः
विदूषः
विदूषकः
अहं विदूषकः
विदूषकः आं विदूषकः जोकर् भवान् कः भवान् नर्तकः डान्सर्
अहं नर्तकः
भवान् कः आं नर्तकः ऐ एम् अ डान्सर् भवती कः अहं नर्तकी भवान् कः अहं अहं
समीचीनं
भवान् कः
अहम् अर्चकः
अर्चकः
पूजारि भवती का अहं
भवान् का
सन्यासी
भगिनी अत्र अत्र भवान् कः अहं सन्यासी
अहं सन्यासी
भवती का
भवती का अहं सन्यासिनी भवान् कः अहं
क्रैस्तगुरुः
क्रैस्तगुरुः यस्
फादर्
फादर् फादर्
फादर् पास्टर् समीचीनं भगिनि समीचीनं भगिनि बहु समीचीनं धन्यवादः भगिनि सो अग्रे अग्रे मुरुगन् सोरि मुरुगन् महोदय मुरुगन् शर्माजी महोदय अर्युदे अस्तु वन्दना भगिनी सो नेक्स्ट् वील् टेक् अप् ओके मुरुगन् शर्मा भगिनी महोदय आर् यु देर्
ऐ एम् नाट् गेटिङ्ग् द फिगर् ओके ओके नौ
इट् इस् क्लियर् महोदय
नौ क्लियर् नौ क्लियर्
ओके महोदय सो केन् यु डू दिस्
भवती का अहम् अध्यापिका अध्यापिका इत्युक्ते टीचर् फिमेल् टीचर्
एक्स्क्यूस् मी महोदय केन् यु रेड्यूस् द स्क्रीन् प्लीस् लिटिल्
लिटिल् न ओके महोदय
भवती का अहं वैद्या
नौ इट् इस् ओके महोदय थेङ्क् यु
भवती का Can you hear my voice? Can you hear?
Yes, Mohdi. I am able to hear your voice.
But I am not getting a figure.
Screen, you have to reduce the
okay,
screen.
Okay, you are not able to hear.
It's not covering all pictures.
Yeah, I am not getting the figure. Slide, I am not getting.
Okay.
Now it is okay, Mohdi. Thank you. Thank you, Mohdi.
Bhavati ka agam vaidya. It should say female doctor. Yeah.
Doctor.
फिमेल् डाक्टर्
समीचीनं भवति
भवती का अहं धात्री
धात्री
धात्री नर्स् नर्स् इत्युक्ते नर्स् धात्री इत्युक्ते नर्स् नर्स्
समीचीनं भवान् कः
भवान् भवान् लिपिकः लिपिकः इत्युक्ते
रैटर्
क्लर्क्
क्लर्क्
क्लर्क् लिपिकः लिपिकरः लिपिकः लिपिकरी आल् आर् क्लर्क्
भवान् कः अहम् आपणिकः इत्युक्ते इस् मर्चण्ट् मर्चण्ट्
आक्चुलि शाप्कीपर् आपणिकः इत्युक्ते शाप्कीपर्
शाप्कीपर् ओके भवान् कः भवान् चालकः इस् इत्युक्ते इस् अ ड्रैवर्
अहम् अहम् अहं चालकः भवान् चालकः
ओके ओके अहं सोरि भवान् कः अहं न्यायकातिता न्यायकातिता
नायकः
इत्युक्ते
इत्युक्ते इस् जड्ज् जड्ज्
महोदय लीडर् लीडर्
ओ ओ
न्यायकः
ओ
नायकः इत्युक्ते
भवान् कः भवान् अति अतिवन्दाः न टु ऐ एम् टेलिङ्ग् अबौट् नम्बर् अतिवन्दाः
अधिवक्ता अधिवक्ता इस् लायर्
अधिवक्ता अहम् अधिवक्ता इत्युक्ते इस् अ लायर् भवान् भवान् कः भवान् लेखकः 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 इस् रैटिङ्ग् इत्युक्ते इस्
रैटर्
Writer. भवान् कः भवान् अहं विमानिकः विमानिकः
वैज्ञानिकः
वैमानिकः इस् अ पैलट् वैमानिकः
इस् इत्युक्ते पैलट्
समीचीनं
भवान् कः भवान् कः अहं नाविकः इत्युक्ते इस्
समीचीनम्
ओके भवान् भवान् चित्रकारः इस् आर्टिस्ट् इत्युक्ते इस् आर्टिस्ट् भवान् भवान् कः भवान् कः इस् पाचकः इत्युक्ते इस् अ कुक्
समीचीनं
भवान् भवान् कः इस् भवान् अहं गायकः इस् अ मेल् सिङ्गर्
नर्तकी
भवती वाट् इस् द करेक्ट् प्रोनौन्सियेशन्
नर्तकी
भवती का अहं नर्तकी
भवती का अहं नर्तकी इस् अ फिमेल् डान्सर् फिमेल्
वार्ताहर
इत्युक्ते
न्यूस् रीडर्
न्यूस् रीडर् ओके ओके भवती का अहं क्रीडालु क्रीडालुः 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 स्पोर्ट्स् गर्ल् भवान् कः
सैनिकः
भवान् सैनिकः इत्युक्ते इस् अ सोल्डर् भवान् कः इस् अ वत्रवाहः छत्रवाहः पोस्ट्मेन् भवान् कः इस् तक्षकः तक्षकः कार्पेण्टर्
तक्षकः
अहं तक्षकः भवान् कः कार्पेण्टर् भवान् कः अहं शैक्षिकः शैक्षिकः ऐ एम् इत्युक्ते
टेलर्
इत्युक्ते टेलर् समीचीनं समीचीनं
धन्यवादः Mahoday, just a clarification. If you go back for, here if you look for scientists, it's say Vaijnanikaha. In a previous slide, we had it as Vaijnani, I think.
Vijnani. We had it here as Vijnani. So somebody who is experimenting is also a Vijnani and somebody who is also conducting experiments is a Vaijnanikah.
Okay.
Is there any difference between them?
Hello? No
difference,
Mahodaya. No difference, Mahodaya.
Thank you.
Thank you, Mahodaya. Dhanyavadaha.
धन्यवादः भगिनि सो ओके सो इफ् यु हेव् टु सो इफ् यु हेव् टु लुक् एट् द वर्ड् वैज्ञानिकः ईस् फार् मास्क्युलैन् ओके वैज्ञानिकः एण्ड् इट् इस् basically telling about what that person is doing, vaigyanikaha. And it is a visheshanam, adjective, defining it. Similarly, if we want to define vaigyanikaha in feminine gender, then it is vaigyaniki, it is not vijnani. Okay, it is not vijnani, it is vaigyaniki, vaigyaniki. That is the feminine gender word for vaigyanikaha. Astu bhagini, so that is vijnani is also the same thing that we are addressing. But if you want to say scientist who is a female or in the feminine version, then it will become vaigyaniki. Vaigyaniki will be the feminine gender. Okay?
Dhanyavaad.
So, aam bhagini. So, next one is Vandana bhagini. If you are available, can you please read
yes.
this particular profession, Vruttayaha, from Krushikaha, Vandana Bhagini?
Yes, I can hear you. Hello?
Bhagini.
Hello? Can you hear me?
Is my
okay.
Yes, Bhagini. Is my voice audible?
Yes, I can. Bhavan kaha. Bhavan, no, aham varta hara ha.
From Krushikaha.
What is varta hara?
Varta hara is newsreader.
Okay, Chamichar. Dhanyavadam. Then second is Bhavan bhavati ka.
Aham Bhavan kaha.
Kriralu. Because it's a lady. Kriralu.
It is Kriralu. Okay. It yes, yes. Okay. Bhavati ka aham kriralu. Samichanam. Agre
bhagini. Aham kriralu. Ityukte sports women.
Sports woman.
Bhavatah bhavan kaha aham sainikah ityukte soldier. Bhavan kaha aham patravah ityukte postman. Bhavan kaha aham takshakah ityukte carpenter. Bhavan kaha aham sochikaha ityukte tailor. Bhavan kaha aham krushakaha ityukte farmer. Krushikaha ityukte farmer. Bhavan kaha aham sevakaha ityukte how you say worker. Dhanyavad. Bhavan kaha aham rajakaha ityukte washerman. Bhavan kaha aham dhivara. I can't see, it's very small.
Okay, let me make it big.
Okay, but what is he doing?
Dhivara is a fisherman. Yes, Bhagini.
It's a fisherman. Bhavan kaha aham lohakara. I am a blacksmith. Bhavan kaha aham kulalah. Ityukte potter.
Samichinam.
Bhavan kaha aham charmakarah ityukte what is he called in English?
Cobbler.
Butcher? No, cobbler. Bhavan kaha aham tantuvayah ityukte a weaver.
Samichinam.
Bhavan kaha अहं मूर्तिकारः इत्युक्ते स्कल्प्चर्
समीचीनं
भवान् कः अहं स्वर्णकारः इत्युक्ते गोल्ड्स्मित्
समीचीनं
भवान् कः अहं लेपकारः इत्युक्ते मिस्त्री ऐ डोण्ट् नो वाट् यु काल् इन् इङ्ग्लिश् इन् हिन्दी यु काल् मिस्त्री भवान् कः अहं नापितः इत्युक्ते वाट् यु से नाई वाट् इस् इट् काल्ड्
बार्बर् बार्बर् समीचीनं भगिनि समीचीनं बहु समीचीनं
धन्यवादः
धन्यवादः भगिनि धन्यवादः सो सो वी हाव् सीन् आल् मोस्ट् आफ् द प्रोफेशन्स् हियर् so it is already 9:10 we'll stop here and we have
what is this vartaya means
vartaya ityukte okay astu atra vrutaya ityukte profession vrutaya okay. ityukte profession
dhanyavad
astu bhagini am sarvebhyah so we will stop here here there is one slide here I'll share this slide in the mail the link will be provided in the email and also you will have the link in the slide here as you see here there is a slide here and slide here and the link associated to this particular slide which talks about various words okay there is a song that is being played As you see here, there is a song and there are a lot of words. So what is the homework for this week is, let me show you the homework first. I'll also tell you what all needs to be done as part of this week's homework. So in Abhyasa Pustakam, we have completed till 1.6A last week. All of this has been completed and this has been submitted also. This week, please do 1.7. The homework is 1.7 from Abhyasa Pustakam page. Try to practice this, write this and post it on WhatsApp. This is one homework. And the second homework is, listen to this song here. The song that have been presented in this slide. This slide is already available with the previous email that I sent. It is already there. I'll send this to tonight as well. And you'll have this slide and there is a link associated to it. In the slide, Geetam Khagaha. And you will see this video on YouTube. Please try to listen to this. And the homework is to identify the word and the corresponding English word. As you see here, there is Vadati Kapotaha Gutar Gum. This is there here. So it is saying pigeon. So, kapotaha means pigeon. So, if you are not able to do this, you are not able to identify which word is actually which bird, go to this dictionary here. So, type in pigeon. Type in pigeon here. This will point out in spokensanskrit.org. This link has been shared. And see which word is pigeon. If it is there here, kapota is there here and it is also there in this video. So please identify these words. If you are not able to directly do it in the video, search for these words in this dictionary here. Okay? So please practice the professions if possible. It is not mandatory homework, but if possible, please try to write this word and the English meaning for it. Please practice that. That is what is the homework. It is not mandatory though. The mandatory ones are this one. You have to complete 1.7 in Abhyasa Pustakam. And also listen to this video, the song here. Identify the Sanskritam word and its associated English word or the English meaning. That is all the homework for this week. And when you find the time, please try to write each of these profession words and its corresponding English meaning. That is what is the homework for this week. Astu, so, Sarvebhyah, Dhanyavadaha.
Sir, I have a question.
Hearing the song and writing what?
Okay, so let me play this. Let me see. So it is saying Pakshishala. So, Bhagini, what I was saying is, you have the word here. As you see, if you open the video properly, you will see the Sanskritam word and also the meaning that is there in English. So, you have to identify the Sanskritam word and what is its meaning by listening to the song. If you are not able to do it, go to this dictionary, which I have shared earlier, spokensanskrit.org. Try to find the word and its associated Sanskritam word. Try to do it in English and try to find the Sanskritam word in this video only. Whatever the word is given. Chatakaha. So if I type in sparrow here, it will show here. As you see, so chataka is here. Chataka is also there in our video. So please identify the word and the corresponding English word. Identify the word in Sanskrit and its corresponding meaning in English. That is what is the homework for this.
Sir, I have a question.
Dhanyavad Mahodaya.
Dhanyavad Bhagini. Samichinam.
Sir, I have a question.
Aam Bhagini.
The homework we are doing, how we know we are doing right or we are doing mistakes?
Yes, correct, Bhagini. So, the Abhyasa Pustakam solutions I will be sharing in the document now. So, currently we are manually I'm checking them. So, that is why you're getting those responses. And also what I'll do is, till whatever we have completed, 1.6 or 1.7, this week, so from this week, I will share the entire document in 1.7, after this Saturday. After the coming Saturday, I will share the entire document or the solutions for this.
Thank you.
Dhanyavad.
Shubharatri, sir.
धन्यवाद भगिनी.